गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आरशृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनाम वित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यवहुतो तरिषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः या तरिषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया या ते रुद्रशिवा तनोरघोरापापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्रताम् कुरुमाहिगुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिसाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुमना असत् अध्यवोचदधि वक्ता प्रथमो दैव्योऽभिषक् अहेयस्य सर्वान् जम्भयन् सर्वास्त्रयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्तु मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षु श्रिता सहस्रशो वैशागुम् हेडयीमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उतैनम् गोपादृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयादिनः नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्जधन्वरस्त्वमुभयोरात्मीयोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु धे निशीर्य शल्याणामुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाततताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्मृणक्तु विश्वतः अथो यैषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदा शिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्मिञ्जराय द्विषीमते पथीनां पतये नमो नमो बभ्लुषाय दिव्याधिरेणां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगता पतये नमो नमो रुद्राय तताविने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्वपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नव उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृष्णभीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिनाव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिने स्तेनानां पतये नमो नमो निषङ्गिन इषुधिमते तक्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः श्रिकाविभ्यो जिघागुंसद्भ्यो मुष्टताम् पतये नमो नमो सिमद्भ्यो रक्तञ्जरभ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो दन्वाविभ्यश्च वो नमो नम आतन् वारेभ्यः प्रतिदधारेभ्यश्च वो नमो नम आर्यच्छभ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यद्भ्यश्च वो नमो नम आसीरेभ्यश्च यारेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठभ्यो धावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नमः आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृच्छेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रतेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमस्येनाभ्यस्येनारिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वरिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रीकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो मीडुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वरे च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्राय च शीभ्याय च नमः पूर्म्याय च स्वन्याय च नमः स्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुद्ध्याय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्रोत्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शूराय चाववृन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो कृष्णवे च प्रमुषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कूप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेध्याय च विद्युत्याय च नमः ईद्र्याय च रप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुवाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेद्याय च कुल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः त्रिगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो హృదయాయ చ నివేష్యాయ చ నమః పార్వం ద్రవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్వ్యాయ చ శూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో పగురమానాయ చ విఘ్నతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో రిక్షీణతేభ్యో నమో విచిన్వత్కేభ్యో నమ ఆలేహతేభ్యో నమ ఆవిర్వత్కేభ్యః ద్రాపే అంధసత్పతే దరిద్రం నీలలోహిత ఏషాం పురుషాణామేషాం పశూనాం మాధేర్మా రోమో ఏషాం కిర్చనామవత్ యాతే రుద్ర శివా తనో శివా విశ్వాః భేషజీ శివా రుద్రస్య భేషజీ తయానో మృడ జీవసే ఇమాగుం రుద్రాయ తవసే కపద్వినే శయద్వీరాయ ప్రభరామహే మతిం యథానశ్శమసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రో తనో మయస్కృధి శయద్వీరాయ నమసా విధేమతే యచ్ఛం చయోశ్చ మనురాయజే పితా తదశ్యామ తవ రుద్ర ప్రణీతౌ మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోకేతన ఏ మాన ఆయుషి మానో గోషు మానో అశ్వేషురీరిషః వీరాన్మానో రుద్రభామితో వధీర్హవిష్మంతో నమసా విధేమతే ఆరాత్రే గోగ్రౌత పూరుషగ్నే క్షయద్వీరాయ సుం నమస్మేతే అస్తు రక్షాజనో అది చ దేవ బ్రూయదాచ నశర్మ యచ్చద్విబర్హాః సుహిశ్రుతం గర్త సదం యువానం మృగన్న భీమముపహత్నుముగ్రం ఋడాజయిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనాః పరిణో రుద్రస్య హేతిర్వృణక్తుపరి ద్వేషస్య దుర్మతిరఘాయోః అవస్థిరా మఘవ్యస్తనుష్వమీన్వస్తోకాయ తనయాయ మృడయా మీడుష్టమ శివ తమ శివో నః సుమనాభవ పరమే వృక్ష ఆయుధం నిధాయ కృత్తిం వసాన ఆచరపి నాగం బిభ్రదాగహి వికిరిద విలోహిత నమస్తే అస్తు భగవః యాస్వే సహస్రగుం హేతయోన్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనా ముఖాకృతి సహస్రాణి సహస్రశో యే రుద్రా అధిభూమ్యా తేషాగుం సహస్రయో జనే వధన్వాణి తన్మసి అస్మిన్ మహత్యర్ణవేంతరిక్షే భవాది నీలగ్రీవాశితి కంఠా శర్వాదః క్షమాచరాః నీలగ్రీవాశితి కంఠాదివగుం రుద్రా ఉపశ్రితాః యే వృక్షేషు సస్పింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాసః కపర్దినః యే అన్నేషు వివిద్యంతి పాత్రేషు పిబతో జనాన ये पथाम् पतिरक्षय ऐलभृदायव्युदः ये देधारि प्रचरन्ति सृकावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुंसहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदिचेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् विष्मो यस्य नो द्वे स्थितम् भोजम् त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मोक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमोऽस्तु ये ते सहस्रमयुतम् पाशावृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु यश्विशुसुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिवर्षणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेवा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परगुंसि च मे शरीराणि च मे ज्येष्ठ्यम् च म आधिपत्यम् च मे मन्यश्च मे भामश्च मे मश्च मेऽम्भश्च मे जीमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे
शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सोमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे स्थिरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्भिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रं च महोद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मे नं च मे क्षुश्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च महापश्च मे विरुदश्च महोषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्धश्च मयेमश्च मयितिश्च मे गतिश्च मे अग्निश्च मयिन्द्रश्च मे सोमश्च मयिन्द्रश्च मे सविता च मयिन्द्रश्च मे सरस्वती च मयिन्द्रश्च मे पूषा च मयिन्द्रश्च मे बृहस्पतिश्च मयिन्द्रश्च मे मित्रश्च मयिन्द्रश्च मे वरुणश्च मयिन्द्रश्च मे त्वष्टा च मयिन्द्रश्च मे दाता च मयिन्द्रश्च मे विष्णुश्च मयिन्द्रश्च मे श्विनौ च मयिन्द्रश्च मे मरुतश्च मयिन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च मयिन्द्रश्च मे अन्तरिक्षं च मयिन्द्रश्च मे द्योश्च मयिन्द्रश्च मे दिशश्च मयिन्द्रश्च मे मोदा च मयिन्द्रश्च मे प्रजापतिश्च मयिन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मे द्विपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुद्ग्रहाश्च मे तिग्राह्याश्च ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेधिश्च मे धिष्णीयाश्च मे सृचश्च मे चमसाश्च मे द्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नेर्धं च मे हविर्दानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे द्वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्योश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृत्या बृहद्रथम् धरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे द्वित्यवाच्य मे द्वित्यो हि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यो हि च मे पष्टवाच्य मे पष्टौ हि च म उक्षा च मे वशा च मऋषभश्च मे देहश्च मे नद्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पता प्राणो यज्ञेन कल्पता भाणो यज्ञेन कल्पता ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे त्रिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे स्तौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे स्ताविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे स्ताचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्मियश्चान्द्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च ఇడా దేవోర్మనుర్యజ్ఞనిర్బృహస్పతిరుక్తా మదాని శగుం శిషద్విశ్వే దేవాసూక్తవాచ పృథివీమాధర్మాహిగుంశీర్మధుమనిష్యే మధుజనిష్యే మధువక్ష్యామి మధువదిష్యామి మధుమతీ దేవేభ్యోవాచముద్యాదగుం శుశ్రూషేణ్యా మనుష్యేభ్యస్తం మా దేవా అవంతు శోభాయ పితరోను మదంతు ఓం శాంతి 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 ఓం తచ్చయోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం శన్నో అస్తు ద్విపదే శం చతుష్పదే ఓం శాంతి శాంతి శాంతిః సహస్రశీర్షా పురుషః సహస్రాక్ష సహస్రపాద్ స భూమిం విశ్వతో భృత్వా అత్యతిష్ఠత్ దశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యశ్చ భవ్యం ఉదానుతత్వశేషానః యదన్నేనాతిరోహతి ఏతావానస్య మహిమా అతో జాయాగుశ్చ పూరుషః పాదోర్శ్య విశ్వాభూతాని త్రిపాదస్యామృతం దివి త్రిపాదూర్ధ్వ ఉదైత్పురుషః పాదోర్శ్యేహాభవాత్ పునః తతో విశ్వం వ్యక్రామత్ శాసనానశనే అభి తస్మాద్విరారజాయత విరాజో అధిపురుషః స్వజాతో అత్యరిచ్యత పశ్చాద్భూమిమథో పురః యత్పురుషేణ హవిషా దేవా యజ్ఞమతన్వత వసంతో అస్య సీదాజ్యం గ్రీష్మయిద్మ శరద్ధవిః సప్తాస్యాసన్ పరిధయః త్రిసప్త సమిదకృతాః దేవా యజ్ఞం తన్వానాః అబధ్నన్ పురుషం పశుం తం యజ్ఞం వరిహిషి ప్రౌక్షన్ పురుషం జాతమగ్రతః తేన దేవా అయజంత సాధ్యాదృశయశ్చ యే తస్మాద్యజ్ఞాత్ సర్వభూతః సంవృతం వృషధాజ్యం పశుగుస్వాగుశ్చక్రే వాయవ్యాన ఆరణ్యాన్నామ్యాశ్చ యే తస్మాద్యజ్ఞాత్ సర్వభూతః రుచస్సామాని జగ్నిరే ఛందాగుంసి జగ్నిరే తస్మాత్ యజుస్తస్మాదజాయత తస్మాదశ్వా అజాయంత ఏకేచో భయాదతః గావోహ జగ్నిరే తస్మాత్ తస్మాజ్జాతా అజావయః వ్యత్పురుషం వ్యదభూ కతిదా వ్యకల్పయన్ ముఖం కిమస్య కౌ బాహూ కాహూరోపాదావుచ్యేతే బ్రాహ్మణోశ్య ముఖమాసీత్ బాహూరాజన్యః కృతః ఊరో
तदस्य यद्वैश्यः
पद्भ्यागुं
शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शीष्णौ समवर्तत पद्भ्याम् भूमिर्दिशत्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचिद्य धीरः नामानि कृत्वाभिवदन्यजासे धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रतिसस्रतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्ता अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानसचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अभ्यः सम्भूतः पृथिव्यैरसा आश विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजालन्ति योनिम् मरीचीणाम् पदमिच्छन्ति वेधसः यो देवेभ्यवादपति यो देवानाम् पुरोहितः पूर्यो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्वैवम् ब्राह्मणो विद्यात् तस्य देवा अयन्वते श्रीष्यते लक्ष्मीश्च पत्नौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अहम् मनिषाणा सर्वम् मनिषाणा तच्चय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम्मवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् भूषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रगुम् भुवेम प्रातर्जितम् भगमुग्रगुम् भुवेम वयम् पुत्रमदितेर्यो विधर्ता आद्रश्चित्यम् मन्यमानस्तुरश्चित्राजा चित्यम् भगम् वक्षीत्याः भग प्रणेतर्भग सत्यराधो भगे माम् धियमुदवदतन्नः భగ ప్రణో జనయోభిరేద్ భగ ప్రణవిర్నువంత శ్యామ ఉతేదానీం భగవంత శ్యామోత ప్రపిత్వ ఉత మధ్యే అర్హా ఉతోదితా మఘవన్ సూర్యస్య భయం దేవానాగుం సుమతౌ శ్యామ భగ ఏవ భగవాగుం అస్తు దేవాస్తేన భయం భగవంత శ్యామ తం త్వా భగ సర్వ ఇచ్చో హవేమి సనో భగ పుర ఏత భవేహ సమధ్వరాయోషసో నమంతదధిగ్రావేవ శుచయే పదాయ అర్వాచీనం వసురిదం భగన్నో రథమివాశ్వాజిన ఆవహంతు అశ్వావతీర్గోమతీర్న ఉషాసో వీరవతీ సదముచ్చంతు భద్రా ఘృతం దుహానా విశ్వత ప్రపీనా యూయం పాత స్వస్తిభిః సదా నః యో మాగ్నే భాగినగుం సంతమథా భాగం చికీరుషతి అభాగమగ్నేతం కురు మామగ్నే భాగినం కురు ఓం శాంతి శాంతి శాంతిః ఓం మా సత్యేన రజసా వర్తమానో నిరేషయన్నమృతం మర్త్యం చ హిరణ్యయేన సవితారథేనా దేవో యాతి భువన విపశ్యన్ అగ్నిం దూతం గృణీమహే హోతారం విశ్వవేదసం అస్య యజ్ఞస్య సుక్రతుం యేషామీషే పశుపతి పశూనా చతుష్పదాముత చద్విపదా నిష్క్రీతోయం యజ్ఞేయం భాగమేతురాయ స్పోషా యజమానస్య సంతో ఓం అధిదేవతా ప్రత్యధిదేవతా సహితాయ ఆదిత్యాయ నమః ఓం ఆప్యాయ స్వసమేతుతే విశ్వత సోమ వృష్ణియం భవావాజస్య సంగతే అప్సు మే సోమో అబ్రవీదం తర్విశ్వాని భేషజా అగ్నిం చ విశ్వశంభువమాపశ్చ విశ్వభేషజే గౌరేమిమాయ సలిలాని తక్షత్యేకపదే ద్విపదే సా చతుష్పదే అష్టాపదే నవపదే బభూవుషి సహస్రాక్షరా పరమే వ్యోమన్ ఓం అధిదేవతా ప్రత్యధిదేవతా సహితాయ సోమాయ నమః ఓం అగ్నిర్మూర్ధాదివ కకుట్పతి పృథివ్యాయం అపాగుంద్రేతాగుంసి జిన్వతే శోనా పృథివిభవా రుక్షరా నివేశనీ యచ్ఛానః శర్మ సప్రథా క్షేత్రస్య పతినా భయగుం హితేనేవ జయామసి కామశ్వం పోషయిత్ర వాసనో మృడా దీదృశే ఓం అధిదేవతా ప్రత్యధిదేవతా సహితాయ అంగారకాయ నమః ఓం ఉద్బుద్ధ్య స్వాగ్నే ప్రతిజాగృహ్యేన మిష్టా పూర్తి సగుం సృజేథామయం చ పునః కృణ్వగ్గస్త్వా పితరం యువానమన్వాతాగుంసి త్వయి తంతుమేతమ్ ఇదం విష్ణుర్విచక్రమే త్రేధాని దదే పదం సమూఢమస్య పాగుం సురే విష్ణోరరాటమసి విష్ణో పృష్ఠమసి విష్ణో స్నప్త్రే స్తో విష్ణో
ಚೂರಸಿ ವಿಷ್ಣೋರ್ಧ್ರುವಮಸಿ ವೈಷ್ಣವಮಸಿ ವಿಷ್ಣವೇ ತ್ವಾ. ಓಂ ಅಧಿದೇವತಾ ಪ್ರತ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ಬುಧಾಯ ನಮಃ. ಓಂ ಬೃಹಸ್ಪತೇ ಅತಿಯದರ್ಯೋ ಅರ್ಹಾದ್ಯುಮದ್ವಿಭಾತಿ ಕ್ರತುಮಜ್ಜನೇಷು ಯದ್ದೇದ ಯಚ್ಚ ವಸತ್ತ ಪ್ರಜಾತ ತದಸ್ಮಾಸು ದ್ರವಿಣಂ ದೇಹಿ ಚಿತ್ರಂ. ಇಂದ್ರಮರುತ್ವ ಇಹ ಪಾಹಿ ಸೋಮಂ ಯಥಾಚಾರ್ಯಾತಿ ಅಪಿ ವಸ್ಸುತಸ್ಯ. ತವ ಪ್ರಣೀತಿ ತವ ಶೂರ ಶರ್ಮನ್ನಾಭಿವಾಸಂತಿ ಕವಯಸ್ಸು ಯಜ್ಞಾಃ. ಬ್ರಹ್ಮಜ್ಞಾನಂ ಪ್ರಥಮಂ ಪುರಸ್ತಾದ್ವಿಷೇಮತಃ ಸುರುಚೋ ವೇನ ಆವಹ. ಸ ಬುದ್ಧ್ನಿಯಾ ಉಪಮಾ ಅಸ್ಯ ವಿಷ್ಟ ಸತಶ್ಚ ಯೋ ನಿಮಸತಶ್ಚ ವಿವಹ. ಓಂ ಅಧಿದೇವತಾ ಪ್ರತ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ಬೃಹಸ್ಪತಯೇ ನಮಃ. ಓಂ ಪ್ರವಶುಕ್ರಾಯ ಭಾನವೇ ಭರದ್ವರುಂ ಹವ್ಯಂ ಮತಿಂ ಚಾಗ್ನಯೇ ಸುಪೂತಂ. ಯೋ ದೈವ್ಯಾನಿ ಮಾನುಷಾ ಜನೋ ಗುಶ್ಯಂತರ್ವಿಶ್ವಾನಿ ವಿದ್ಮನಾಜಿಗಾತಿ. ಇಂದ್ರಾಣಿ ಮಾಸು ನಾರಿಷು ಸುಪತ್ನಿ ಮಹಮಶ್ರವಂ ನಹ್ಯಸ್ಯ ಅಪರಂಚ ನಜರ ಸಾಮರತೇ ಪತಿಃ. ಇಂದ್ರಂ ವೋ ವಿಶ್ವತಃಪರಿ ಹವಾಮಹೇ ಜನೇಭ್ಯಃ. ಅಸ್ಮಾಕಮಸ್ತು ಕೇವಲಃ. ಓಂ ಅಧಿದೇವತಾ ಪ್ರತ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ಶುಕ್ರಾಯ ನಮಃ. ಓಂ ಶನ್ನೋ ದೇವೇರಭಿಷ್ಟಯ ಆಪೋ ಭವಂತು ಪೀತಯೇ ಶಯ್ಯೋರಭಿಶ್ರವಂತು ನಃ. ಪ್ರಜಾಪತೇನ ತ್ವವೇತಾನ್ಯನ್ಯೋ ವಿಶ್ವ ಜಾತಾದಿ ಪರಿತಾಪಭೂವ. ಯತ್ಕಾಮಸ್ತೇಜುಹುಮಸ್ತನ್ನೋ ಅಸ್ತು ವಯಗ್ಗುಶ್ಯಾಮ ಪತಯೋರಯೀಣಾಂ. ಇಮಂ ಯಮ ಪ್ರಸ್ತರಮಾಯಿ ಸೀದಾಂಗಿರೋಭಿ ಪಿತೃಭಿಃ ಸಂವಿಧಾನಃ. ಆತ್ವಾ ಮಂತ್ರಾ ಕವಿಶಸ್ತಾವಹಂತ್ವೇ ನಾರಾಜನ್ ಹರಿಶಾಮಾದಯಸ್ವ. ಓಂ ಅಧಿದೇವತಾ ಪ್ರತ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ಶನೈಶ್ಚರಾಯ ನಮಃ. ಓಂ ಕಯಾನಶ್ಚಿತ್ರ ಆಭುವಧೂತಿ ಸದಾ ವೃಧಃ ಸಖಾ ಕಯಾ ಶಚಿಷ್ಠಯಾ ವೃತಾ. ಆಯಂಗೋ ಪೃಷ್ಣಿರಕ್ರಮೀದಸನನ್ ಮಾತರಂ ಪುನಃ ಪಿತರಂ ಚ ಪ್ರಯಂಸುವಃ. ಯತ್ತೇ ದೇವೀ ನಿರರುತಿರಾವವಂಧರಾವಗ್ರೀವಾಸ್ವವಿಚರ್ತ್ಯಂ ಇದಂ ತೇ ತದ್ವಿಶ್ಯಾಮ್ಯಾಯುಷೋ ನ ಮಧ್ಯಾ ತಥಾ ಜೀವ ಪಿತು ಮಧ್ಯ ಪ್ರಮುಕ್ತಃ. ಓಂ ಅಧಿದೇವತಾ ಪ್ರತ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ರಾಹವೇ ನಮಃ. ಓಂ ಕೇತುಂ ಕೃಣ್ವನ್ನ ಕೇತವೇ ಪೇಶೋ ಮರ್ಯ ಅಪೇಶಸೇ ಶಮು ಸದ್ಭಿರಜಾಯಥಾ. ಬ್ರಹ್ಮಾ ದೇವಾನಾಂ ಪದವೇ ಕವೀನಾಂ ಋಷಿರ್ವಿಪ್ರಾಣಾಂ ಮಹಿಷೋ ಮೃಗಾಣಾಂ ಶೇನೋ ರುದ್ರಾನಾಗುಸ್ವದಿತಿರ್ವನಾನಾಗುಂ ಸೋಮ ಪವಿತ್ರಮತ್ಯೇತಿರೇಭನ್ನ ಸಚಿತ್ರ ಚಿತ್ರಂ ಚಿತಯನ್ ತಮಸ್ಮೇ ಚಿತ್ರಕ್ಷತ್ರ ಚಿತ್ರತಮಂ ವಯೋಧಾಂ ಚಂದ್ರಂ ರಯಿಂ ಪುರುವೀರಂ ಬೃಹಂತಂ ಚಂದ್ರ ಚಂದ್ರಾಭಿರ್ಗೃಣತೇ ಯುವಸ್ವಾ. ಓಂ ಅಧಿದೇವತಾ ಪ್ರತ್ಯಧಿದೇವತಾ ಸಹಿತೇಭ್ಯಃ ಕೇತುಭ್ಯೋ ನಮಃ.
ॐ आदित्यादि नवग्रह देवताभ्यो नमो नमः। ॐ शान्ति शान्ति शान्तिः। ॐ अहम् रुद्रेभिर्वसोभिश्चराम्यहमादित्यैरुत विश्वदेवैः। अहम् मित्रावरुणो भाविभर्म्यहमिन्द्राग्नि अहमश्विनो भा। अहम् सोमामाहनसम् विभर्म्यहम् त्वष्टारमुत पूषणम् भगम्। अहम् दादामिद्रवीणम् हविष्मातेषु प्राव्ये यजामानाय सुन्वते। अहम् राष्ट्रे सङ्गमानि वसूनाम् चिकितुषे प्रथमा यज्ञियानाम् तामा देवाव्याददुः पुरुत्रा भूरिस्तात्राम् भूर्याम् वेषयन्ते। मया सोऽन्नामक्तियो विपश्यति यः प्राणीति य एम् शृणोत्युक्तम्। अमन्तवो मान्त उपक्षियन्ति श्रुति श्रोतश्रद्धिवन्ते। वदामि अहमेव स्वयमिदम् वादामि जुष्टम् देवेभिरुतमानुषेभिः। यम् कामयेतम् तामुग्रम् कृणोमि तम् ब्रह्माणम् तम् ऋषिम् तम् सुमेधाम्। अहम् रुद्राय धनुरातारोमि ब्रह्मद्विशेषरा वेहन्तवाऊ। अहम् जनाय समदम् कृणोम्यहम् द्यावा पृथिवी आविवेशा। अहम् सूवे पितरामस्य मूर्धन् मम योनिरप्स्वान्तः समुद्रे। ततो वितिष्ठे भुवनानु विश्वो तामोऽन्ध्याम् वर्ष्मणोपस्पृशामि। अहमेव वाता इव प्रवाम्यारभामाना भुवनानि विश्वा। परो दिवा परयेना पृथिव्यै प्रावाति महिना सम्बभूव। ॐ शान्ति शान्ति शान्तिः। ईशानः सर्वविद्यानामीश्वर सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवो। तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुराततम्। तद्विप्रारो विपन्यवो जाग्रवागुम् सत्समिन्दते विष्णो यत्परमम् पदम्। नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुप्रचोदयात्। तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयात्। ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वः प्रचोदयात्। हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात्। स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु।
समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति